प्रदन्तम् अमेय साङ्ख्येन च लक्ष्मीशं गजाननं भक्तियुता भजामः मुनीन्द्रवन्द्यं विधिबोधहीनं सुबुद्धिदं बुद्धिधरं प्रशान्तं
विकारहीनं सकलाङ्गकं वै गजाननं भक्तियुता भजामः अमेयरूपं हृदि संस्थितं तं ब्रह्मेकमेकं भ्रमनाशकारकम् अनादिमध्यान्तमपाररूपं गजाननं भक्तियुता भजामः रवौगतं पञ्चविभूतिहीनं गजाननं भक्तियुता भजामः न विश्वगं तैजसगं न प्राज्ञं समष्टिव्यष्टिस्थमनन्तगं तं गुणैर्विहीनं परमार्थभूतं गजाननं भक्तियुता भजामः
गुणेशगं नैव च बिन्दुसंस्थं न देहिनं बोधमयं न ढुण्ढिं सुयोगहीनं प्रवदन्ति
सर्वं प्रतिदेहसंस्थं गजाननं भक्तियुता भजाम यदि त्वया नाथ धृतं न किञ्चित् तदा कथं सर्वमिदं भजामि अतो महात्मानय चिन्त्यमेवं गजाननं भक्तियुता भजामः
सुसिद्धिदं भक्तजनस्य देवं सकामिकानामिह सौख्यदन्तम् अकामिकानां भवबन्धहारं गजाननं भक्तियुता भजामः सुरेन्द्रसेव्यं यसुरै सुसेव्यं समानभावेन विराजयन्तम्
अनन्तबाहुं मूषकध्वजं तं गजाननं भक्तियुता भजाम सदा सुखानन्दमयं जले च समुद्रजे इच्छुरसे निवासं द्वन्द्वस्य यानेन च नाशरूपं गजाननं भक्तियुता भजाम
चतुः पदार्था
अमायिनं मायिकमोहदन्तं गजाननं भक्तियुता भजामः रविस्वरूपं रविभासहीनं हरिस्वरूपं हरिबोधहीनं शिवस्वरूपं शिवभासनाशं गजाननं भक्तियुता भजामः चरैर्लोकविहीनमेकं गजाननं भक्तियुता भजामः मनोवचोहीनतया सुसंस्थं निवृत्तिमात्रं ह्यजमव्ययं तं तथापि दैवं सुसंस्थितं तं गजाननं भक्तियुता भजामः गजाननत्वां गजाननं भक्तियुता भजाम पुराणवेदा शिवविष्णुकाद्याः शुक्रादयो ये गणपस्तवे वै विकुण्ठिताः किञ्च वयं स्तुवीमो गजाननं भक्तियुता भजामः